इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठ नेता च नरेन्द्र मोदी अद्य वाराणसी लोकसभा क्षेत्राय स्वीय नैर्वाचनिक नामांकन पत्रं पूरितवान्। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय नैर्वाचनिक नामांकन पत्र पूरणस्य अद्य अन्तिमं दिनं वर्तते। लिबरेशन टाइगर्स ऑफ तमिल ईलम इत्यस्मिन् संघटनस्योपरि प्रतिबन्धः पञ्चवर्षेभ्यः संवर्धितः। पाकाधिकृत कश्मीरे पाकिस्तान बलैः सह प्रवर्तितस्य हिंसक प्रहारस्य अनन्तरं चत्वारः जनाः मारिताः, शताधिकं च व्रणिताः जाताः। अपि च आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां नवदिल्ल्याः अरुण जेटलीति प्रख्याते क्रीडांगणे अद्य डेल्ही कैपिटल्स लखनऊ सुपर जायंट्स दलयोर्मध्ये द्वन्द्वं भविष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठ नेता नरेन्द्र मोदी अद्य वाराणसी लोकसभा क्षेत्राय स्वीय नैर्वाचनिक नामांकन पत्रं पूरितवान्। जून मासस्य प्रथमे दिनांके सामान्य निर्वाचनस्य सप्तम चरणस्य अन्तिम चरणस्य च अन्तर्गतं वाराणसी नगरे मतदानं समनुष्ठीयते। अद्य प्रातः श्रीमोदी पवित्र गंगा नद्यां स्नात्वा वाराणसी नगरे तस्याः तीरस्थे दशाश्वमेध घट्टे समर्चनां कृतवान्। काशीनगरस्य आरक्षकात् कालभैरवात् च विजयाशीषं संगृह्य नामांकनस्य औपचारिकतां प्रपूरयत्। अस्यां प्रक्रियायां एनडीए संयुतिदलस्य अनेके नेतारः यथा चन्द्रबाबू नायडुः, एकनाथ शिन्देः, जीतन राम मांझी, संजय निषादः, रामदास अठावले, भाजपा दलाध्यक्षः जेपी नड्डाः, राजनाथ सिंहः, हरदीप सिंह पुरीः च उपस्थिताः आसन्। इंडी संयुत्याः कांग्रेसदलस्य च प्रत्याशीभूतः अजय रायः अस्मात् वाराणसी लोकसभा क्षेत्रात् विपक्षे संघर्षाय विराजमानो वर्तते। लोकसभा निर्वाचनस्य सप्तम अन्तिम चरणाय नैर्वाचनिक नामांकन पत्र पूरणस्य अद्य अन्तिमं दिनं वर्तते। एतस्मिन् चरणे सप्त राज्यानां एकस्य च केन्द्रशासित प्रदेशस्य सप्त राज्यानां सप्त पञ्चाशदासनेभ्यः मतदानं करिष्यते। उत्तरप्रदेश पंजाबयोः त्रयोदश, पश्चिमबंगस्य नव, बिहारस्य अष्ट, ओडिशायाः षट्, हिमाचलप्रदेशस्य चत्वारि, झारखण्डस्य त्रयः, केन्द्रशासित प्रदेशस्य चण्डीगढस्य एकं च आसनेभ्यः मतदानं विधास्यते। प्रदत्त नामांकन पत्राणाम् अनुसन्धेय कार्यं श्व भविष्यति। तत्रैव शुक्रवासरं यावत् नामांकन प्रत्यावर्तनं कर्तुं शक्यते। अस्मै चरणाय मतदानम् अग्रिममासस्य प्रथमे दिवसे निर्धारितं विद्यते। केन्द्रप्रशासनेन लिबरेशन टाइगर्स ऑफ तमिल ईलम इत्यस्मिन् संघे प्रतिबन्धः पञ्चवर्षेभ्यः संवर्धितः। गृहमन्त्रालयेन स्वकीयायाम् अधिसूचनायाम् उक्तम् अस्ति यत् केन्द्रप्रशासनेन लिट्टे इत्यस्मिन् संघस्योपरि तस्य गतिविधीनाम् अनुशीलनपूर्वकं प्रतिबन्धः प्रवर्धितोऽस्ति, यद्धि भारतस्य सम्प्रभुतायै क्षेत्रीय अखण्डतायै च संकटास्पदो भवन्नस्ति। मन्त्रालयेन प्रतिबन्धकारणेषु लिट्टे इत्याख्यस्य संघटनस्य विघटनकारिणः पृथकवादिनश्च गतिविधयः सन्ति इत्युक्तम्। पाकाधिकृत कश्मीरे पाकिस्तानबलैः सह प्रवर्तितस्य हिंसक प्रहारस्य अनन्तरं चत्वारः जनाः मारिताः, शताधिकं च व्रणिताः जाताः। अधिकारिभिः प्राप्त सूचनानुसारि न्यूनातिन्यूनं जनद्वयं भुशुण्डिका प्रहारेण मृत्युम् अधिगतवान्। तत्रैव मृतेषु चतुर्षु जनेषु एकः आरक्षि अधिकारी अपि आसीत्। ऋणमुक्ति विद्युते गोधूमचूर्णाय च धनरूपोपकारस्य अभ्यर्थनं गृहीत्वा सहस्राधिकाः जनाः शुक्रवासरादेव मार्गेषु प्रदर्शनरताः सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। निर्वाचनायोगेन निगदितं यत् आदर्श आचार संहितायाः प्रख्यापनात् अनन्तरं आयोगेन 90%-अधिकाः परिवेदनाः निस्सारिताः। आयोगेन उक्तं यत् कांग्रेस भाजपेति दले अतिरिच्य कापि विशिष्टा प्रतिवेदिना न अवशिष्टा अस्ति इति। आयोगेन अद्य एकस्मिन् वक्तव्ये प्रोक्तं यत् विभिन्न राजनीतिकदलैः प्रत्याशिभिश्च सपादचतुश्शत प्रमुख प्रतिवेदनाः पंजीकृताः आसन्, येष् चतुश्शत प्रतिवेदनानाम् उपरि कार्याचरणं विधाय प्रकरणानि निस्सारितानि सन्ति। आयोगेन एतदपि उक्तं यत् कांग्रेसदलेन 70%-अधिकं प्रतिवेदनाः स्थापिताः, भाजपेति दलेन च 95%, अन्यदलैश्च 60%-अधिकं प्रतिवेदनाः पंजीकृताः आसन्। विविध राजनीतिक दलीयैः नेतृभिः अद्य उत्तरप्रदेशे प्रचाराभियानं निर्वाचन सम्बन्धं विहितम्। भाजपेति दलाध्यक्षः जेपी नड्डाः अद्य केन्द्रीय मन्त्रिणः स्मृति ईरान्याः समर्थने उत्तरप्रदेशस्य अमेठी जनपदस्थिते मुंशीगंज क्षेत्रे नैर्वाचनिक जनसमूहं सम्बोधितवान्। तत्रैव विपक्षदलात् अस्मात् क्षेत्रात् कांग्रेसदल प्रत्याशी किशोरीलाल शर्मा अस्ति। अद्य फ्रांस देशस्य कांस नगरे 77वें कांस चलचित्रोत्सवस्य आयोजनं समारब्धम्। द्वादश दिवसात्मकेऽस्मिन् आयोजने भारतमपि प्रातिभाग्यं विदधाति। भारतीय प्रतिनिधिमण्डले भारत प्रशासनं, राज्यप्रशासनानि, चलचित्र जगतः सदस्याश्च सम्मिलिताः सन्ति। भारतं प्रथमवारं अवसरेऽस्मिन् भारत पर्व इत्याख्यस्य आतिथ्यं विधास्यति। कांसे भारतमण्डपं भारतीय चलचित्र समुदायाय विभिन्नास् गतिविधिष् सहभागितायै समेकित मञ्चत्वेन कार्यं विधास्यति। भारतेन केन्यादेशे जलप्लावित पीडितेभ्यः सहायतायै भारतीय वायुसेनायाः विशिष्ट विमानेन 40 टन परिमाणे औषधयः, चिकित्सा आपूर्त्योपकरणानां मानवीय सहायतायाः द्वितीयो भागः प्रेषितः। सहायतायाः प्रथमः भागः नौसेनायाः जलपोतेन सुमेधया अस्य मासस्य 10वें दिनांके प्रेषितः आसीत्। केन्यायां मूसलाधार वर्षया भूयोपि 250 जनाः मृताः, प्रायः 200 जनाश्च व्रणिताः सन्ति, प्रायशः 3,00,000 जनाश्च विस्थापिताः सन्ति जाताः। आईपीएल इत्येतस्यां क्रिकेट प्रतिस्पर्धायां नवदिल्ल्याः अरुण जेटली इति प्रख्याते क्रीडांगणे अद्य डेल्ही कैपिटल्स लखनऊ सुपर जायंट्स दलयोर्मध्ये द्वन्द्वं भविष्यति। विगतरात्रौ अहमदाबादनगरस्य नरेन्द्र मोदी क्रीडांगणे कोलकाता नाइट राइडर्स दलं निर्णायक द्वन्द चक्रेभ्यः चितम्। कोलकाता नाइट राइडर्स गुजरात टाइटन्स दले एकमेकम् अंकं स्वीकृत्य प्रतिस्पर्धायाः शीर्षस्थानाय कोलकाता नाइट राइडर्स दलमेव निजस्थानं सुनिश्चितवत्। अपि च टेनिस प्रतिस्पर्धायां भारतस्य रोहन बोपन्नाः तस्य च ऑस्ट्रेलिया देशीयः सहयोगी मैथ्यू एब्डेनः अद्य इटली देशस्य रोम नगरे प्रचल्यमाणायाः इटालियन ओपन टेनिस प्रतिस्पर्धायाः बहिर्गतवन्तः। रामचरितमानस पंचतन्त्रं सहृदय लोकलोकन इत्येतानि पुस्तकानि यूनेस्को इत्यस्य विश्व एशिया प्रशान्त क्षेत्रीय अनुस्मरण पंजिकायां सम्मिलितानि स। सन्ति। संस्कृति मन्त्रालयेन प्रोक्तं यत् भारताय गौरवास्पदं वर्तते इति वार्ताः।